ॐ अथ श्री गजेन्द्र मोक्ष स्तोत्रम्। श्री शुक उवाच। ॐ एवं व्यवसितो बुद्ध्या समाधाया मनो हृदि जजाप परमं जाप्यं प्राग्मन्यन्यनुशिक्षितं। गजेन्द्र उवाच। ॐ नमो भगवते तस्मै यत् एतच्चिदात्मकं पुरुषायादिबीजाय परेशाया विधीमहि यस्मिन्निदं यतश्चेदं येनेदं या इदं स्वयं योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयंभुवम्। यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्वचतद्तिरोहितम् अवेद्रुकः साक्षुभयं तदीक्षते स आत्ममूलोऽवतु मां परात्परः। कालेन पञ्चत्वमितेषु कृष्णनो लोकेषु पालेषु च सर्वहेतुषु तमस्तदासीद् गहनं गभीरम् यस्तस्य पारेऽभिविराजते विभुः। न यस्य देवा ऋषया पदं विदुर्जन्तु पुनः कोऽर्हति गन्तुमीरितुम् यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणा समावतु। दिद्रक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनया सुसाधवा चरन्त्यलोकव्रतमवृणं वने भूतात्मभूता सुहृदा समे गते। न वेद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा तथापि लोकाप्ययसंभवायया स्वमायया तान्यनुकालमृच्छति। तस्मै नमः परेशाय ब्रह्मणे नन्तसक्तये अरूपायोरूपाय नमः आश्चर्यकर्मणि। नमः आत्मप्रदीपाय साक्षिणे परमात्मने। नमो गिरां विदुराय मनसश्चेतसामपि सत्त्वेन प्रतिलभ्याय नैष्कर्मेण विपश्चिता। नमः कैवल्यनाथाय निर्वाणासुखसंविदे। नमः शान्ताय घोराय मूढाय गुणधर्मिणे निर्विशेषाय साम्याय नमो ज्ञानघनाय च क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे पुरुषायात्ममूलाय मूलप्रकृतये नमः। सर्वेन्द्रियगुणदृष्टे सर्वप्रत्ययहेतवे आसताच्छाय योक्ताय सदाभासाय ते नमः। नमो नमस्ते खिलकारणाय निष्कारणायाद्भुतकारणाय सर्वागमाम्नाय महार्णवाय नमोपवर्गाय परायणाय गुणारणिच्छन्न चेदूष्मपाय तच्छोभविस्फूर्जितमानसाय नैष्कर्म्यभावेन विवर्जितागमा स्वयं प्रकाशाय नमस्करोमि। मादृक् प्रपन्न पशुपास विमोक्षणाय मुक्ताय भूरि करुणाय नमो लयाय स्वांसेन सर्वतनुब्रेन्मनसि प्रतीता प्रत्यग्दृशे भगवते बृहते नमस्ते। आतात्मजाप्त ग्रहवीत जनेषु शक्तेर्दुष्प्रापणाय गुणसङ्ग विवर्जिताय मुक्तात्मवे स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय। यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति किं त्वाशिशोरात्यपि देहमव्ययम् करोतुमेदहृदयो विमोक्षणम् एकान्तिनो यस्य न कञ्चनार्थम् वाञ्छन्ति एवे भगवत्प्रपन्नः अत्यद्भुतम् तच्चरितम् सुमङ्गलम् गायन्त आनन्द समुद्रमग्नः तमक्षरम् ब्रह्म परम् परेशमव्यक्तमाध्यात्मिक योग गम्यम् अतीन्द्रियम् सूक्ष्म विवाति दूर मनन्तमाद्यम् परिपूर्णमीडे यस्य ब्रह्मादयो देवा वेदा लोकश्चराचरः नामरूपा विभेदेन फल्क्व्या च कलया कृतः यथार्चिसोऽग्ने सवितोर्कवस्तयो निर्यान्ते संयान्यसकृे स्वरोचिसा तथा यतोऽयम् गुणसम्प्रवाहो बुद्धिर्मनकानि शरीरसर्गः स वेन देवा स्वरमर्त्यतिर्यम् न स्त्री न षण्डो न पुमान् न जन्तु नायम् गुणकर्म न सन् न चासन् निषेदशेषो जयतादशेषः जिजेविसेनाहमिहामुयाकी अन्तर्बहिश्चावृतये भयोन्या इच्छामि काले ननयस्य विप्लव स्तस्यात्मलोकावरणस्य मोक्षम् सोऽहम् विश्वसृजम् विश्वमविश्वम् विश्ववेदसम् विश्वात्मानमजम् ब्रह्म प्रणतोऽस्मि परम् पदम् योगरन्दितकर्माणो हृदि योग विभाविते योगिनोऽयम् प्रपश्यन्ति योगे सन्तम् नतोऽस्म्यहम् नमो नमस्तुभ्यमसह्य वेगा शक्तेत्रयाखिल द्विगुणाय प्रपन्नपालाय दुरन्तशक्तये कदीन्द्रियाणामनवाप्यवर्त्मनि नायम् वेद स्वमात्मानम् यच्छक्त्याहन्दियाहतम् तम् दुरत्यये माहात्म्यम् भगवन्तमितोऽस्म्यहम् श्रीशुक उवाच एवम् गजेन्द्रमुपवर्णित निर्विशेषम् ब्रह्मादयो विविदलिङ्गविदाभिमानः नैते यदोपसस्रपूर्निखिलात्मकत्वात् तत्राखिला मर्मयो हरिराविरासीत् तम् तद्वदार्थमुपलभ्य जगन्निवास स्तोत्रम् निशम्य दिविजये सहसंस्तुवद्वि छन्दोमयेन गरुडेन समुह्यमाना चक्रायुधो व्यगमदासु यतो गजेन्द्र सोऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्ट्वा गरुत्मति हरिख उपात चक्रम् उक्षेप्य साम्बुजकरम् गिरमाह कृच्छ्र नारायणाखिल गुरो भगवन् नमस्ते तम् वीक्ष्य पीडितमज सहसावतीर्य सग्राहमासु सरसा कृपयो जहार ग्राहाद्विपाटित मुखा दरिडोम् गजेन्द्र सम्पश्यताम् हरिरमो मुचदो स्त्रियाणाम् ॐ अथ श्री गजेन्द्र मोक्षस्तोत्रम् सम्पूर्णम्।